सर्वेभ्यः नमस्कारः. सिद्धान्तकौमुद्याः अजन्तस्त्रीलिङ्गप्रकरणे सप्तमः पाठः, जून् मासस्य षष्ठः दिनाङ्कः. येनाक्षरसमाम्नायमधिगम्येश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतमस्मि मुनित्रयम्. त्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीर्यं विरच्यते. अजन्तस्त्रीलिङ्गाः, तत्र आकारान्तस्त्रीलिङ्गाः समाप्ताः. वि सा डिफरेण्ट् कैण्ड् आफ़् फ्लवर्स् इन् आकारान्तस्त्रीलिङ्गा. तत्र द स्टाण्डर्ड् अर्थात् साधारणशब्दः आकारान्तस्त्रीलिङ्गेषु भवति रमाशब्दः. ऐ डिड् द मङ्गलम्. ऐ थिङ्क् देर् वास् अ लास् इन् आडियो कनेक्षन् इन् दट् टैम्, सो ऐ डोण्ट् नो इफ् यु हर्ड् इट्. मङ्गलम् आदौ रमाशब्दः. रमाशब्दः साधारणशब्दः, यत्र आवन्तप्रयुक्तानि कार्याणि भवन्ति. तानि च पञ्चकार्याणि: हल्ज्ञाभ्यदीभस्य प्रथमं हल् इति सुलोपः, औङ्गापः इति औकारविभक्तेः श्रेयादेशः, सम्बुद्धौ च इत्यनेन सम्बुद्धौ परतः प्रातिपदिकस्य एत्वम्, आङिचापः इत्यनेन आङि ओसि च परे प्रातिपदिकस्य एत्वम्, याडापः इत्यनेन नितां प्रत्ययानां याडागमः, ह्रस्वनद्यापो नित इत्यनेन आमः षष्ठी बहुवचने आम् प्रत्ययस्य नुडागमः, नेराम् नद्यां नीतः इत्यनेन नेयप्रत्ययस्य आम् आदेशः. सप्तकार्याणि आप्तप्रयुक्तानि कार्याणि. अनन्तरं आफ्टर् दिट् वाट् एवर् द शब्द वी डिस्कस् वेर् डीवियेशन्स् फ्रम् रमाशब्द. सर्वाशब्दः भवति सर्वनामसंज्ञा अस्ति तस्य. सर्वनामत्वात् तत्प्रयुक्तत्वेन कार्यद्वयं विशिष्यते. सर्वनाम्नः स्याट् स्पृष्ट इत्यनेन नितां प्रत्ययानां स्याट् इति आगमः भवति. आमि सर्वनाम्नः सुट् इत्यनेन आमः सुट् इति आगमः भवति. सो दोस् आर् द टु कार्यस् विच् डिफरेन्शियेट् सर्वनामशब्द फ्रम् अ नार्मल् आकारान्त. इन् अदर् केसस् वट् एवर् इस् द कार्य फार् नार्मल् आकारान्त विल् होल्ड् गुड् फार् द सर्वनाम आल्सो. सर्वनामसु एव उत्तरपूर्व शब्दः. उत्तरस्याः पूर्वस्याश्च दिशो यदन्तरालम् उत्तरपूर्व. लिङ्गामान्यन्तराले हलो I think I finished Sarvashabda, right? Oh, okay. Sarvanamnaha Syadha Svashtha Iti Ekam Sutram Aami Sarvanamna Sute Iti Aamaha Sudhagamaha Aparaha. So there are two special things for the Sarvanama Shabda. In others, it would be like a normal Shabda. Sarvanama Sveva Uttara Purva Iti Shabdaha. उत्तरस्याः पूर्वस्याश्च दिशो यदन्तरालम् उत्तरपूर्व. लिङ्गामान्यन्तराल इत्यनेन बहुव्रीः समासः. Maybe if we lose it again, please do call me so that we can at least have the audio. Yeah. Oh, okay. Yeah. Yeah, sure. And I put the file onto Dropbox. I don't know if it is getting loaded or something. at least check if it's loaded on. Okay, so sorry. Uttarapurva is a case where Sarvanamatva Vikalpaha. So it has an optional Sarvanama Samya due to the Sutra, Vibhasha Diksamase Bahuvriha. Uttarapurvasya Uttarapurvaya iti Rupadvayam Siddhyati. Anantaram Dvitiya Tritiya Shabdo. Tayoho Vastudaha Sarvanama Samya Nasti. Kintu Vibhasha Dvitiya Tritiya Abhyamiti Sutrana Itam Pratyana Vikalpena Syadagamaha Vithiyati. पुनः अत्रापि द्वितीयस्यै तृतीयस्यै द्वितीयायै तृतीयायै इति रूपद्वयं सिद्ध्यति. दीस् टु आर् स्पेशल् केसस् विदिन् द सर्वनाम. टुगेदर् द सर्वनामस् देम्सेल्स् आर् अ सेपरेट् केटगरी. आफ्टर् दट् देर् आर् अ सेट् आफ् वर्ड्स् इन् विच् देर् इस् अन् आदेश. सो इन् आल् दोस् वर्ड्स् वन् फार्म् विल् बि लैक् रमाशब्द. रमाशब्दवत् एकं रूपं भवत्येव, किन्तु अपरमपि रूपं भवति. यथा जरा शब्दस्य अजादिषु विभक्तिषु परेषु जरस् इति आदेशः. नासिका शब्दस्य शसादिषु विभक्तिषु नस् इति आदेशः. निशाशब्दस्य निश् आदेशः. कृतनाशब्दस्य कृत् इति आदेशः. वार्तिकेन मांसकृतनासानुगुणां मांसकृत्यमो मत्स्यः इत्यनेन आदेशः. सो दीस् फोर् वर्ड्स् विल् हेव् टु फार्म्स् इन् सर्टन् विभक्तीस्. One form is always like the standard shabda and the other form is a bit different. Anantaram gopa iti shabdaha vishvapavat iti dattam arthat akaranta pullingeshu yatha tatha. So if the akara is not from the tap pratyaya, okay, there was a class, I think 99% of akaranta strilingas are all abantas. Okay, they end with the pratyas, three pratyas called tap, dap or cha. So therefore they'll have the standard karyas like Rama. And there are a few shabdas which are not abantas. Okay. So like gopa, gaha pati, where the pa akara belongs to the dhatu. In such a case it will not have any of the karyas which were told for Rama because it is not abanta. So in that case there is only one thing which applies, which is ato dhato, which we saw in Vishvapa shabda. So in that case, for pullinga and strilinga, there is no difference in forms or prakriya. Evam akaranta strilingaha adhitaha. Anantaram ikarantaha strilingaha. Tatrado matishabdaha svikriyate. Matishabdaha prayena harivat. It is mostly like harishabda. What is the difference? Shasi naktvam, natvam na. Sorry, this is not naktvam, it has to be natvam na. अर्थात् वेन् यु डु प्रथमेव पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घे कृते रमास् इत्युच्यते. तस्मात् छसो नः पुंसि इत्युच्यते. पुंस्त्वाभावात् नत्वं न भवति. सो सिन्स् दिस् इस् नाट् पुल्लिङ्ग, यु विल् नाट् हाव् नकार. एण्ड् देन् टा प्रत्ययस्य न आदेशः. सो हियर् इट् इस् नात्व वेर् द आ इस् रिप्लेस्ड् बै ना. तदपि न भवति. कुतो न भवति? आङो न अस्त्रियाम् इति उक्तं. स्त्रीलिङ्गभिन्ने नात्वं भवति, अस्य स्त्रीलिङ्गत्वात् नात्वं न भवति. सो मतिः मती मतयः, हेमते हेमती हेमतयः, मतिं मती मतीः मत्या. अत्र अस्मि मतिभ्यां किमपि नास्ति, मतिभिः वृत्तविसर्गं. मति इत्यस्मात् ये प्रत्ययः. ये प्रत्यये परतः किं भवेत्? What will happen if it is like Hari? What is the karya? Hari shabda vate ityuktam. Hari shabdasya chaturthye kavachane kim karyam bhavati? घेर्ङिति इत्यनेन गुणः. घेः घिसंज्ञायां सत्यं. घेः ङिति निति प्रत्यये परे घेः गुणः भवति. तेन हरे ए इत्युच्यते. अयादेशे कृते हरै. मतिशब्दस्य किं भवति इति चेत् ङिति ह्रस्वश्च इति सूत्रं विद्यते. यूस्त्र्याख्यो नदी नेयङ्गुमं स्थानावस्ति शेषो गिति ह्रस्वश्च वामि शेषोख्यसखि इति सूत्राणि. इत्येन किं भवति? पदत्रयमस्ति, इति ह्रस्वः च
भूस्त्याख्यो नदी इति सूत्रेण नदी इति अनुवर्तते, नेयमुमं स्थानावस्त्री इत्यनेन इयमुमं स्थानम् इति, वामी इत्यनेन वा इति अनुवर्तते। वस्तुतः नदी इत्यनेन नदी संज्ञाविधायकम् इदं सूत्रम्। सो वी सॉ नदी संज्ञा यूस्त्र्याख्यौ ईकारान्त ऊकारान्ताः नित्यस्त्रीलिङ्गाः नदी संज्ञां प्राप्नुवन्ति। इट् इस् ईकारान्त आर् ऊकारान्त एण्ड् नित्यस्त्रीलिङ्ग, दोस् वर्ड्स् विल् गेट् नदी संज्ञा, लैक् यु हेव् गौरी आर् वधु, आल् दोस् विल् गेट् नदी संज्ञा बै दट् सूत्र। अनेन सूत्रेण किम् उच्यते, इयमुमं स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गौ ईरूतौ ह्रस्वौ च इवर्ण उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तः इति परे। सो देर् आर् टू पार्ट्स् टु द सूत्र, दट् इस् टू केसस् वेर् दिस् सूत्र वुड् अप्लै। द फस्ट् पार्ट् इस् इयमुमं स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गौ ईरूतौ, लेट्स् फर्गेट् दिस् फार् नौ, दिस् इस् नाट् अवर् केस्। सो देर् शुड् बि नित्यस्त्रीलिङ्ग ईकारान्त उकारान्त विच् हाव् द केपासिटि आफ् गेटिङ्ग् इयङ् आर् उवङ्ग् एण्ड् विच् आर् नाट् स्त्री शब्द, आल् दिस् वि विल् सी लेटर्। नौ ह्रस्वौ इवर्ण उवर्णौ, ह्रस्व इवर्णान्त इकारान्त आर् उकारान्त वर्ड्स् स्त्रियां स्त्रीलिङ्गे, सो स्त्रीलिङ्ग ह्रस्व इकारान्त आर् उकारान्त वर्ड्स् वा नदीसंज्ञौ स्तः, विल् गेट् एन् आप्शनल् नदीसंज्ञा। इति परे ङित् प्रत्ययेषु परेषु, अर्थात् ङे ङसि ङस् ङि एतेषु प्रत्ययेषु परेषु ह्रस्व इवर्ण उवर्णान्त स्त्रीलिङ्गशब्दयो शब्दानां नदीसंज्ञा भवति। ओके, सो नौ दिस् मतिशब्दः एतादृशः ह्रस्व इवर्णान्तः स्त्रीलिङ्गः ङे प्रत्यये परे तस्य नदी इति संज्ञा भवति। सो नदीसंज्ञायां सत्यं तत् प्रयुक्तानि कार्याणि भवन्ति। वे आल्रेडी स्टडीड् वाट् आर् द कार्यस् विच् डिपेण्ड् आन् नदीसंज्ञा। इन् ईकारान्तपुल्लिङ्गेषु कुमारी इत्यादि शब्देषु अधीतं नदीसंज्ञा प्रयुक्तानि कार्याणि कानि इति, सो तानि कार्याणि भवन्ति। सो नौ चतुर्थे एकवचने नदीसंज्ञा प्रयुक्तं कार्यं किम्? डू यू रिमेम्बर् वाट् वुड् हेपन् फार् चतुर्थे एकवचन इफ् इट् हेस् नदीसंज्ञा? इति ह्रस्वश्च इति सूत्रेण नदीसंज्ञा भवति। सो नदीसंज्ञायां सत्यं आण् नद्याः नदीसंयोगस्य आट् इति आगमः भवति। सो यु हेव् इन् आकारान्त वि हेड् द याट् आगम फार् मित् हियर् इट् वुड् बि आट् आगम। सो आट् नद्याः मति आ ए आट् इति टित् आगमः अद्यन्तोपतितमित्यनेन आद्यवयोः एकारस्य आदौ आगमश्चेत् मति आ ए। ओके, आटि कृते किं भवति? Whenever there is art, Hema, right, so art krite, so as soon as art is done, wherever you do art, if the pratyaya is ajadi, yadi agre vidyamanaha pratyaya bhagava ajadi, tada artascha ityanena vruddhihi bhavatyeva. Always art is followed by artashcha ityanena vruddhau mati ai idanim ikoyanasi ityanena yani matyai iti ekam rupam nadi samnya pakshe matyai iti rupam kintu iti hrasvashcha iti nadi samnya vaikalpiki atha it's an optional nadi samnya nadi samnyayaha abhave kim bhavati pakshe arthat asya abhava pakshe sheshobhya sakhi ityanena ghisamnya ghisamnyayam kim uchyate अनदीसंज्ञौ ह्रस्वौ यौ इवर्ण उवर्णौ यदा नदीसंज्ञा नास्ति अनदीसंज्ञौ ह्रस्वौ यौ इवर्ण उवर्णौ तदन्तं सखिवर्चं घिसंज्ञं स्यात् इति सूत्रार्थः नदीसंज्ञायाः अभावे घि इति संज्ञा भवति घिसंज्ञायां सत्यां घेर्ङिति इति गुणः मते ए एचो यवायावः इत्यनेन अयादेशे मतये, अत एव रूपद्वयं मत्यै मतये, मतिभ्यां मतिभ्यः इति समानम्। नसि प्रत्यये अथवा नस् प्रत्यये, अत्र तु अस् इति भवेत्, मति अस् इति भवति इत्सु लुप्तेषु। अत्रापि इति ह्रस्वश्च इत्यनेन नदीसंज्ञा भवति। आण्नद्याः इति आट् आगमः, आ अस् आटश्च इति वृद्धिः। सो ईवन् दो इट् इस् पासिबल् टु डू सवर्णदीर्घ हियर्, वेर् एवर् वि हेव् आट् वि जनरली डू आटश्च इति वृद्धिः। सो मति आस् इत्यस्ति। पुनः इको एणसि इत्यनेन एणादेशे मत्यास्, वृत्तविसर्गयोः कृतयोः मत्याः। मत्याः अपरं रूपं किं कथं साध्यते? सो दिस् इस् द केस् वेन् वि हेव् नदीसंज्ञा। वाट् हेपन्स् इन् अदर् केस् वेन् वि हेव् घिसंज्ञा? घिसंज्ञायां सत्यां किं कार्यं भवति? मतेः इति रूपं कार्यं किम्? सत्यम्। अनन्तरं गेर्नीति इत्यनेन गुणे कृते मते अस्तु इत्यस्ति। मते अस् इति कृते किं भवति? नसिंहसोश्च इति पूर्वरूपम्। नसिंहसोः परयोः अतिपरे पूर्वरूपम् एकादेशः स्यात् इत्यनेन पूर्वरूपे कृते किं भवति? मतेस् इति भवति। मतेस् ऋत्वे विसर्गे कृते मतेः, मति अस् इति सम्यक्, घेर्णिति इति गुणः, नसिंहसोश्च इति पूर्वरूपं, ऋत्वविसर्गयोः कृतयोः मतेः, मत्याः मतेः मतिभ्यां मतिभ्यः, मत्याः मतेः मत्योः, मति ओस् इति कृते ऋत्वविसर्ग यणादेशः ऋत्वविसर्गौ, मत्योः मतीनां, मति आम् इति कृते ह्रस्वनद्यापो नुट् इत्यनेन नुडागमः। निमित्तं किं? द निमित्त फोर् नुडागम इस् नाट् नदीसंज्ञा, इट् इस् बिकास् मति डस् नाट् हेव् नदीसंज्ञा इन् आम्, इट् हेस् नदीसंज्ञा ओन्ली इन् नित् वेन् फालोड् बै नित् प्रत्यय। सो द निमित्त हियर् इस् ह्रस्व, ह्रस्वान्तत्वात् नुडागमः, न टु नदीत्वात्। ओके, ऐ मीन् ईवन् दो वि से द सूत्र, वि शुड् नो विच् पार्ट् आफ् द सूत्र अप्लैस्। सो ह्रस्वत्वात् ह्रस्वान्तत्वात् नुडागमः, मति आम् मतीनां, नामीति दीर्घः मतीनां भवति। सप्तम्येकवचने मति इ इत्यस्ति नदीत्वपक्षे। सो अगेन् देर् इस् नदी संज्ञा बै लिङ्गशास्त्रश्च। औत् इति घेः औत्वे प्राप्ते। सो देर् इस् दिस् वि सा सूत्र विच् सेस् औत्, विच् सेस् द नि विल् बि रिप्लेस्ड् बै औ। ओके, सो तद् बाधित्वा इदुद्भ्याम् इति सूत्रम्, एकपदात्मकं सूत्रं। ङेरां नद्यां नीभ्यः इत्यतः ङेः इति अनुवर्तते, नदी इत्यपि अनुवर्तते, आम् इत्यपि अनुवर्तते। नदीसंज्ञकाभ्याम् इदुद्भ्यां परस्य ङेः आम् स्यात्। सो औत् उर्जस्से इदुद्भ्यां परस्य ङेः औत् स्यात्, लैक् वि डिड् इन् सख्यौ। इफ् देर् इस् अ इकारान्त ऋकारान्त, द फालोयिङ्ग् नी इस् रिप्लेस्ड् बै औ, दट् इस् द जनरल् सूत्र। नौ दिस् सूत्र सेस् इफ् देर् इस् नदीसंज्ञा फर् एन् इकार और् उकार, इत् उत् ह्रस्व इकार ह्रस्व उकाराभ्यां, तस्ताभ्यां परस्मेः आम् इत्यादेशो भवति। सो पक्षे अप्चखेः, सो इट् इस् दट् इस् इन् द अदर् केस् इफ् इट् इस् घि संज्ञा। सो इफ् इट् इस् नदी संज्ञा यु हेव् आम् आदेश, इट् बिकम्स् मति आम्। आण्नद्याः इत्यनेन आडागमः, आटश्च इति वृद्धिः, मति आम्। इको एणसि इति अनादेशे मत्याम् इति एकं रूपम्। अभावे अर्थात् घिसंज्ञापक्षे मति इ इत्यस्ति। अच्चघेः इत्यनेन घे ङेः औकारादेशः, मति औ प्रकृतेः अकारः अन्तादेशः मत औ इति भवति पृथ्वीरेचि इत्यनेन वृद्धौ मतौ यथा हरौ इति भवति तथा अत्र मतौ मत्यां मतौ इति रूपद्वयम् एवं श्रुत्यादयः श्रुतिः गतिः कृतिः एनिथिङ्ग् विच् एन्स् इन् इकारान्त स्त्रीलिङ्गसाधारणशब्दः एवमेव रूपाणि भवन्ति ज्ञायन्ते सो दीस् अदर् केसस् वेर् इट् डिफर्स् फ्रम् हरिशब्द प्रायेण हरिवत् सो द मोस्ट् केसस् इट् इस् लैक् हरिशब्द देर् आर् फ्यू केसस् वेर् इट् डिफर्स् स्त्रीत्वात् शसि नत्वं न भवति तायाः नाभावः न भवति सो बिकास् द करस्पाण्डिङ्ग् सूत्रस् डिपेण्ड् आन् इफ् नाट् बीङ्ग् इस् स्त्रीलिङ्ग एण्ड् देन् इत्सु प्रत्ययेषु इति ह्रस्वश्च इत्यनेन विकल्पेन नदी संज्ञायां तत्प्रयुक्तानि कार्याणि भवन्ति अर्थात् आण्नद्याः इति आडागमः इदुद्भ्यामिति औज्वल्स पक्षे तदभावे शेषोभ्यसति इत्यनेन घिसंज्ञा तेन नदीसंज्ञा सत्त्वे एकं रूपं घिसंज्ञायाः सत्त्वे अपरं रूपं सो द फार्म्स् इन् घिसंज्ञा विल् बि लैक् हरिशब्द द फार्म्स् फार् नदीसंज्ञा विल् बि लैक् गौरीशब्द So it's a combination. That is about Mati Shabda. Any questions? Okay. Agresarama. Agrimam Sutra Masti. Tri Chaturoho Striyam Tisu Satasri. Tri Shabdaha. इकारान्तः स्त्रीलिङ्गः त्रिशब्दः लैक् वि हेड् त्रयः इन् पुल्लिङ्ग नौ द सेम् शब्द इस् इन् स्त्रीलिङ्ग विच् मीन्स् त्री इट्स् नित्य बहुवचनशब्द बहुवचनान्तः नित्यं बहुवचनान्तः तस्य अष्टन आविभक्तौ इत्यनेन विभक्तौ इत्यनुवृत्तौ स्त्रीलिङ्गयोः एतयोः एतौ आदेशौ स्तः त्रिचतुरोः त्रिशब्दस्य चतुर् इति शब्दस्य च स्त्रियां स्त्रीलिङ्गे तिसृसतसृ त्रि इत्यस्य तिसृ इति आदेशो भवति चतुर्शब्दस्य चतसृ इति आदेशो भवति सो इन् स्त्रीलिङ्ग दे आर् रीप्लेस्ड् बै दिस् विभक्तौ परतः वेन् फालोड् बै अ विभक्ति वाट् इस् विभक्ति विभक्तिः नाम किं विभक्तिसंज्ञाविधायकं सूत्रं किम् मुत्तुलक्ष्मी सुक्तिङौ विभक्तिसंज्ञौ स्तः विभक्तिश्च इति सूत्रं तेन द सुप् प्रत्ययास् एण्ड् द तिङ् प्रत्ययास् आर् काल्ड् विभक्ति सो वेन् फालोड् बै विभक्ति मीन्स् इन् दिस् केस् दट् इस् वेन् वि आर् डीलिङ्ग् वित् सुवर्णास् वेन् फालोड् बै एनी प्रत्यय वेन् फालोड् बै एनी सुप् प्रत्यय त्री इस् रिप्लेस् बै तिसृ सो इन् इफेक्टिव्लि द शब्द इट् सेल्फ् बिकम्स् लैक् बिकम्स् तिसृ ओके सो वेन् फालोड् बै एनी विभक्ति यु हाव् दिस् कार्य त्री just it is it does not have su and au because it's a bahuvachana nityam bahuvachana anta tri just it is tisru as iti bhavati tri chaturoho striyam tisru satasru ityanena nanim kim karaniyam iti prashnah agrimam sutram bhavati achira ratah achi ra ratah iti trini padani santi तिसृ चतसृ एतयोः ऋकारस्य रेफादेशः स्यात् अचि सो दिस् सूत्र इमीडियट्लि फालोस् त्रिचतुरोः स्त्रियां तिसृचतसृ अचि अजादौ विभक्तौ परतः ऋतः नाम एतयोः ऋकारस्य र रेफः आदेशः भवति सो द ऋ इस् रिप्लेस्ड् बै रेफ क्वश्चन् इस् वै दिस् सूत्र वेन् यु हाव् तिसृ अस् इफ् यु डु इको एण्ड् अचि यु गेट् रेफ ऋकारस्य स्थाने रेफो भवति किमर्थम् इदं सूत्रम् इति प्रश्ने गुणदीर्घ उत्त्वानाम् अपवादः देर् आर् अदर् सूत्रास् विच् आर् ओवर् रूलिङ्ग् यण् ओके Actually, if left to the normal course, yen would have given repha. But there are other sutras which would overrule yen. Guna dirgha utvaha. Rito ni sarvanamasthanayoho. Pradantana nau sarvanamasthanayasapare guno bhavati. You have pitru as, you get guna, it becomes pitaru as, pitaraha. Iti bhavati. Ayam gunaha. Prakarantasya sarvanamasthanayapare gunaha. Prathamayoho purvasavarnaha. अतः प्रथमा द्वितीयोः अचिपरे पूर्वसवर्णदीर्घः एकादेशः स्यात् तेन दीर्घः प्राप्नोति उत्तमं ऋत उत इत्यस्ति तेन ऋकारस्य स्थाने उ इति आदेशः उर् इति आदेशः भवितुम् अर्हति सो यू हैव थ्री डिफरेंट सूत्रस् विच कुड अप्लाई ऑल थ्री वुड नॉट अप्लाई विच ऑफ दोज वुड अप्लाई वी वुड हैव टू डिसाइड बेस्ड ऑन परत्व और वटेवर नित्यत्व एटसेट्रा बट देयर आर possibilities of three sutras applying which would overrule yen. So to overrule all these three, he says achi ra rutaha. So tisru as itisthite achi ra rutaha itayena repha deshe tisru repha ha bhavati anantaram rutta visarga yoha kuta yoha tisraha iti rupam. Tisraha is Trilinga form of three. Trayaha, tisraha, trini. So it is because of this. Three ityeva shabdaha. Shabdastu ikaranta strilingaha, tri shabdaha. Tasya tisru iti adesho bhavati. Adeshe kate repha adeshaha achirarutaha iti sutraya. So tisraha, tisraha. Shaspratyaya parepi punaha eva meva. So the same thing in shas. So the first two forms are the same. Anantaram tisrubhyam, tisrubhihi, tisrubhihi. Not tisribhyam, sorry. Tisribhihi, tisribhyaha, tisribhyaha. You have bhis and you have bhyas. Ubhayatra, here, pinasti. Three bhis, it is tete. Tisribhis, ratta visargayoha kutayoha, tisribhihi. Yevam tisribhyaha, tisribhyaha. Tisribhyam, it is tete. Atrakim karaniyam, tisprashnaha. Tri am, thus tisradeshe, tisribhyam. Question is here, should we do achirarataha? Or should we do Hrasvanadhyapo Nutta? Question. Hrasvanadhyapo Nutta ityanena amaha nudagamaha karaniyava achira dhutaha ityanena repharesha karaniyava. That is prashnaha. Nudagamaha shashthadhyaye vihitaha repharesha achira dhutaha iti saptamadhyaye vihitaha. Vastataha vipradishethe parankaryam ityanena paratvat repharesha eva karaniyaha. Kintu Ami Novatira Hridvadbhavebhyo Nut Purva Vipratishedha. This was a Vartika. As I told, there are cases where the Bhashyakara has decided or has discussed that there would be Purva Vipratishedha. Means when there is a clash between two sutras, instead of the Para Sutra, the Purva Sutra will apply. One of those cases is this. Nu Achira Hridvadbhavebhyaha Nut Purva Vipratishedhena. We saw this in Kroshtu. Roshtu Aam Ipasthate, should we do Vijvadhava? Vibhasha Chitiyadish Vachitinina, Vijvadhava Karaniyova, Rasanadhyapo Nuta Ittinina, Nudagamah Karaniyova, the Prashna. Tatrapi Aveva, Nudagamaha Shastadhyaye Vitaha, Vijvadhava Saptamadhyaye Vitaha. So which we should do? It's the Prashna, Puro Vipratishetana, Nudagamah Karaniyova. Atrapi Achira Nama Achi Repadeshaha Ittaha. Nu Achira Vijvadhavevaha. Nut Puro Vipratishethena. Nut always overrules these three. It overrules Numagama, it overrules Achirarataha and Rijvadhava, and this is called Purva Vipratishetha. When there is a clash, we are applying the earlier sutra instead of the later sutra, which is latter sutra, which is the norm. So Tisru Na Am Ityanena Nudagama. Hrasanadhyapo Nut. This is not this is 7154. Sorry, this is not Shastadhyaya, this is Saptamadhyaya, but first Pada of Saptamadhyaya. And this Trijvadbhava, Achiraritaha is 7200. Saptamadhyaya is Dhitiya Pade Achiraritaha. Tisru Nu Aam Isti. Idanim Kim Bhavati Nami Istanena Dirkaha Prapnoti. Nami Pare Adhantasyangasya Dirkahasya. Dirkhe Prapte Na Tisru Satasru. Ityava Sutram. Nami Ityasmat, the very next sutra to Nami is Na Tisri Chatasri Padadvayam. Dhalope Purvasa Dirghonaha Ityataha Dirghaha Iti Nuvartate. नामि इत्यपेन वर्तते तिस्रु चतस्रु एतयोः नामि दीर्घः न स्यात् सो व्हेन फॉलोड बाय नाम फॉर तिस्रु एंड चतस्रु देयर इज नो दीर्घ डायरेक्टली प्रिवेंट्स दीर्घ सो तिस्रु नाम इत्यस्ति किं भवति इदानीं तिस्रु नाम इति स्थिते किं भवेत् एनी कार्य विच यू कैन थिंक ऑफ रुवर्णात् नस्य नत्वं वाच्यम् इत्यनेन नत्वं भवति सो ऐ डोंट अंडरस्टैंड व्हाट डिड यू से फर्स्ट वी शुड हैव गॉट Oh, sorry, I didn't hear you again. What am? No, tisru naam itasti. We did nudagama. No, ruvarna nasya natvam vachyam. Ityanena natvam bhavati. So it is tisru naam. इट्स वार्तिक तेन वार्तिकेन नत्वे तिसृणाम् इति रूपं दीर्घः नास्ति देर् इस् नो दीर्घ इट् इस् नाट् तिसृणाम् इट् इस् तिसृणाम् नेक्स्ट् तिसृषु त्रिसु इत्यस्ति तिस्रादेशे तिसृ सु आदेशप्रत्यययोः इत्यनेन षत्वे तिसृषु सो यः तिस्रः तिस्रः तिसृभ्यां सोरि तिसृभिः तिसृभ्यः तिसृभ्यः तिसृणां तिसृषु इति रूपाणि स्त्रियाम् इति त्रिचतुरोः विशेषणात् नैः स्त्रियाः त्रयः त्रीणि वा यस्याः सा प्रियत्रिः इति शब्दः नौ हि लुक्स् इन् टु वाट् हेपन् वित् दिस् त्रिशब्द इस् इन् अ समास समासे किं भवति इति प्रश्नः नौ इन् समास मीन्स् इन् उपसर्जनसमास मीन्स् इच्छति बहुव्रीहि यतोहि यदि तत्पुरुषसमासः तदा एवमेव रूपम् इफ् इट् इस् तत्पुरुषः प्राधान्यमस्ति चेत् यथा त्रिशब्दः तथैव रूपाणि भवन्ति देर् इस् नो डौट् किन्तु उपसर्जनत्वम् अस्ति चेत् किं भवति इति प्रश्नः तदा उच्यते सूत्रं किम् आसीत् त्रिचतुरोः स्त्रियां तिसृचतुस्रि सो वेन् त्री आर् चतुर् दोस् वर्ड्स् आर् इन् स्त्रीलिङ्ग आर् यूस् टु इण्डिकेट् स्त्रीलिङ्ग तदा तिसृ इति आदेशः भवति लुक् एट् दिस् समास स्त्रियाः त्रयः यस्याः स त्रयः किमपि स्यात् त्रीणि फलानि यस्याः प्रियाणि त्रयः वृक्षाः यस्याः प्रियाः सन्ति त्रयः यस्याः प्रियाः प्रिया त्रि इत्यस्ति नौ दिस् होल् थिङ्ग् इस् इन् स्त्रीलिङ्ग प्रियाः त्रयः यस्याः सा इति समासः समस्तपदं स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गवाचकं प्रियत्रि इत्यस्ति बट् द त्री विच् इस् अ काम्पोनेण्ट् आफ् दट् समास is not in strilinga it is either in pullinga or napumsakalinga priyah trayah triniha yasyah so when you do that what will happen is the question samas samasta padam strilinge asti kintu tri iti shabdah pullinga vachakah athava napumsakalinga vachakah tada kim bhavati iti prashnam chate striyam iti trichaturoh visheshana so that is why the sutra specifically says त्रिचतुरोः स्त्रिया अर्थात् त्रिशब्दः चतुःशब्दो वा यत्र स्त्रीत्ववाचकः तत्रैव तिसृ चतस्र इति आदेशः हियर् इवन् दो द समास इस् स्त्रीलिङ्ग द त्री पार्ट् आफ् इट् इस् नाट् इन् स्त्रीलिङ्ग इट् इस् ईदर् इन् पुल्लिङ्ग न पुंसक इन् सच् अ केस् इट् विल् नाट् हेव् तिस्रादेश तिस्रादेशः न भवति प्रियत्रि इत्येव प्रातिपदिकं प्रियत्रिः प्रियत्री प्रियत्रयः इति मतिशब्दवद् रूपाणि भवन्ति सो द फार्म्स् विल् बि लैक् मतिशब्द ओन्ली वन् डिफरेन्स् आम् इति प्रियत्रयाणाम् इति विशेषः फालोड् बै आम् यु हेव् प्रियत्री आम् इस् अ सूत्र काल्ड् त्रेस्त्रयः त्री इस् रिप्लेस्ड् बै त्रय वेदर् इट् इस् प्रधान आर् गौण वि सा इट् इन् त्रिशब्द त्रयाणाम् इति भवति सो अत्रापि भवति तेन प्रियत्रयाणाम् इन्स्टेड् आफ़् प्रियत्रीणाम् इट् विल् बि प्रियत्रयाणाम् That is all. Since three is in pullinga, it will get trayadesha, priyatrayanam. So if the three shabda is not indicating strilinga, whether the entire world is Trilinga or Pulinga will not matter. There is no Tisra Adesha. Priyatrihi, Priyatri, Priyatrayaha iti Mati Shabdavad Rupani. Priyaha, Tisraha, Yasya Saha. Now we see the opposite case. Tisraha, Yasya Priyaha. Atra Stri Shabdaha, Strilinga asti. Tisraha, itjanyanya iti. Yasya Saha, Samastam Padam tu Pulinga asti. The component is in Strilinga and the Samastapada is in Pullinga. What will happen now? Tisradeshaha Bhavati. So even if the entire word is not Strilinga, we do get Tisradesha because the three components. So Tisradeshasya Ekaha Eva Niyamaha. So there is only one thing you have to consider, is the three part of it, whether it is independently or in a Samasa, is the three part of it conveying Strilinga or Pullinga is the question. So priyaha tisraha yasya saha. Atra kim asti? Tri shabdaha strilinge asti. Tisraha iti means. Samasta padam tu pullinge asti. Atra kim bhavati iti? Tata tisra deshaha bhavati. Yatra tri shabdaha stritva vachakaha. Where the three component, whether it's independent or in a samasa, whenever that indicates a strilinga, or when it is in strilinga, then we have Tisradesha irrespective of whether the whole thing is denoting Strilinga or not. Priyaha Tisraha Yasya Tisra Shabdaha Tri Shabdaha Strilinga Vachakaha Samasta Padam Tu Pullinga Vachakam Tada Kim Bhavati Iti Chet Tisradesha Bhavati Priyatri Su Iti Sthite Tisradeshe Priyatisru Iti Bhavati Yatha Pita Iti Bhavati Tatha Kim Bhavati Priyatisru Su Iti Sthite Rudushana Spurudam Soneha Samchaitanena Anangadeshaha Priyatisan su Sarvanamasthane cha sambuddhau Tinena upadhadirkha Priyatisan su itibhavati Sulopaha nalopasprathipirikantasya Tinena nalopaha Priyatisa itirupam Yatha pitru shabdasya pita Tatha priyatisru ityasya priyatisa Priyatisru au Itishthite achirarataha Ittinena rephadeshaha Ajadishu pratyayeshu achirarataha iti rephadeshaha Priyatisrau priyatisraha Priyatisram ityadi. So Tisradesha will be there if the Tri is in Strilinga, even if the whole word is in Pullinga. Priyaha Tisraha Yasya Saha. Priyaha Tisraha Yasya Tat. Napumsaka Linge Kim Bhavati. Pullinge to Tisradeshaha Kritaha. Priyaha Tisraha Yasya Tat Kulam Priyatri. Korthaha. What happens in Napumsakalinga? Since we have not yet gone into Napumsakalinga, let's just take a peek into what is the prakriya in Napumsakalinga. In Napumsakalinga, generally whether it is Su Pratyaya or Am Pratyaya, Priyatri Su or Am, Samor Napumsakat Ityanena, Su Pratyayasya Am Pratyayasya cha Luk Bhavati. That's why you have Dadhi, is Dadhi, Dadhini, Dadhini, Vari, Varini, Varini. Everywhere you have only the Pratipadika being heard. Because in Napumsakalinga, the Su and Am will get deleted. Look, Su Am, etayohu pratyayohu, Luk Bhavati. So, tena lukte Priyatri ityasti. So, as soon as we do Su Pratyaya or Am Pratyaya, it is deleted. So, you have Priyatri. Now, can we do Tisradesha as the question? Even after the Pratyaya is deleted, we have Pratyaya Lope Pratyaya Lakshanam. Pratyalope Pratyalakshanam ityukte kim? Pratyaye lukte api tatprayuktam karyam bhavitum arhati. Tena tisradeshah bhavati va. Tasya nishedha asti na lumatam yasya. Swamoh luka luktatvena pratyalakshanam bhavat na tisradeshah. Pratyalope Pratyalakshanam is a sutra which gives pratyalakshana. That is, even after pratyaya is deleted, we can do karyas depending on that pratyaya. But there is a nishedha for that which says, na lumata angasya. Lumata lukte. Luk shlu luk. Etaihi yada lopaha kriyate. Tada angasya karyam. Anganimittam karyam na bhavati. So if a pratyaya has been deleted by luk shlu or luk, there is no angakarya, is what it says. So 7123. Okay, sorry. Samor napumsaka is 7123. So even when you have deleted it by look, there is no pratyalakshana. If there is no pratyalakshana, which means there is no vibhakti.
because trichaturoh striyam trisachatasya requires a vibhakti. So if there is no vibhakti, that is if there is no supratyaya, we cannot do the tisradesha. So in su and am, there will be no tisradesha in napumsakalinga. Okay.
Samohu lukaluptatvena pratyalakshanabhavat na tisradeshaha. But there are some people who say
nalumatangasya iti nishedhasya anityatva pakshe. There are some people who believe that the nishedha nalumatangasya is anitya. It does not apply anywhere, everywhere. So if it does not apply here, tada kim bhavati pratyalakshanena pratyaha asti iti matva vibhaktim nimitti kritya tisradeshaha kriyate tada priyatisra iti rupa. So, according to Dikshita, it is Priyatri. There is no Tisradesha because Nalupatangasya prevents Pratyalakshana. There is, there are a few people who say there will be Tisradesha because of Pratyalakshana. And in that case, the form will be Priyatisra.
So, Priyatri or Priyatisra. Dvivachane Priyatri Au. त्रिचतुरोः क्रियां त्रिचतुस्रे इत्यनेन प्रियतिसृ औ इदानीं नपुंसकात्य इत्यनेन उङ्ः षि आदेशः क्रियते प्रियतिसृ इ इत्यस्ति. सो दिस् हेपन्स् अगेन् इन् नपुंसकलिङ्ग. दिस् प्रक्रिया अण्ड् आल् विल् सी इन् नपुंसकलिङ्ग. सो नपुंसकात्य इत्यनेन उङ्ः षि इति आदेशः क्रियते. रत्वात् पूर्वविप्रतिषेधेन नुम् नौ द क्वश्चन् इस् शुड् वि डू प्रियतिसृ इ अचिरगुतः इत्यनेन रेफादेशः करणीयो वा नपुंसकस्य झलसः इत्यनेन नुमागमः करणीयो वा इति प्रश्नः. नाट् नपुंसकस्य झलसः इकोचि विभक्तौ इत्यनेन नुमागमः करणीयो वा इति प्रश्नः. रत्वात् पूर्वविप्रतिषेधेन नुम् अगेन् नुम् आल्सो हेस् सर्टन् केसस् वेर् इट् ओवर्रूल्स् द लेटर् सूत्र एण्ड् वन् आफ़् द केसस् इस् अचिरगुतः. So in case of Napumsakalinga, if it is Adadi Vibhakti, there is Numagama and not Achira Rupaha. Okay. So this is, this is not Napumsakasya Jalachaha, this is Ikochi Vibhakti. Napumsakasya Jalachaha applies only in Sarvanamasthana. And in Napumsakalinga, Shi Sarvanamasthana. Only Shi has Sarvanamasthana, Au does not have Sarvanamasthana. So we do not apply this sutra, we apply another sutra immediately following this, which is Ikochi Vibhaktam. So tena priyatisrini priyatisr nu I ittenena numagamaha. Okay, there is a question. How is priyatisr in napumsakalinga? Tisra adesha is only in strilinga. This is the exact point we are dealing with. As long as three is in strilinga, whether the entire word is in pullinga or napumsakalinga, we have tisradesha. Priyaha tisraha yasya tat, that's the vigraha. So the three part of it is in strilinga, even though the entire word is in napumsakalinga. That is why we have tisradesha, even if samasta padasya napumsakatve, three shabdasya stritvamasti. So that is why we have tisradesha here. So priyatisru nu I natve krute priyatisruni. So these forms we can study in napumsakalinga. The only point here is we have tisradesha, even if the word is napumsakalinga. Since three, the component three is in strilinga, we have tisradesha is the first point. Second point, in su and am, since the pratyaya is lost by look, there is no tisradesha, it will be priyatri. In all other vibhaktis, there will be tisradesha, priyatisra, but achiradataha will not apply in napumsakalinga because it is overruled by numagama. Achi vibhaktau num iti numagama kriyate. Tena achiradataha iti rephadesha hana bhavati. In pullinga, there is achiradataha. There is both tisradesha and achiradataha. In napumsakalinga, there is only numagama. Jasi priyatisruni.
तृतीयादिषु वक्ष्यमाण पुंवद्भावविकल्पात् पर्यायेण नु रभावो प्रियतिसृणा प्रियतिस्रा इत्यादि. सो वाट् हेपन्स् आफ्टर् तृतीया विभक्ति फार् आल् नपुंसकलिङ्गास् देर् इस् अ पुंवद्भावविकल्प. सो देर् इस् अ सूत्र विच् सेस् फार् नपुंसकलिङ्गास् फ्रम् तृतीया विभक्ति इट् हेस् एन् आप्शनल् रूप लैक् पुल्लिङ्ग. देर् आर् टु फार्म्स्.
one form would be like in Pullinga and the other form would be like in Napumsakalinga. Napumsakalinga means there is Numagama. So Pullinga means whatever happens in Pullinga. So for Priyatri, from Tritiya, there is an optional forms. That is, if it is Napumsakalinga, there will be Num. If it is Pullinga, as I told, Achiradataha would apply. So, Tritiyadishu, Tritiya Vibhaktehi Arabhya, Vakshyamana Pumbadbhava Vikalpa. Since there is an optional Pumbadbhava, that is, the forms will be like Pullinga, Paryayena Num Rabhavo. So, alternately, there will be Num. That is, if it is an Napumsakalinga form, it will be Num. If it is a pullinga, like a pullinga form, it will be rabhava, which means achiraratha, iti repadesha. So, you have priyatisru a, numagame krute priyatisru na, iti bhavati, repadesha krute priyatisra, iti bhavati. Priyatisru na, priyatisra, priyatisru bhyam, priyatisru bhihi. Priyatisru ne, priyatisre, priyatisru bhyam, priyatisru bhaha, ityadi. So, the point of this whole exercise is, if tri is in tri linga, whether the samasta pada is in pullinga or napumsakalinga, there is tisra desha. Okay. But if the tri is not in strilinga, for example, priyaha, trayaha, tisraha, esya saha, esya sa, even if the samasta pada is in strilinga, if the tri component is not in strilinga, there is no tisra desha. Okay. And all these words will have all three vachanas. Tri shabdaha nityam bahuvachanantaha. But when you do samasa, that is bahuvrihi samasa, upasarjanatvat, sarvaha vibhaktayah bhavanti, sarvani vachanani bhavanti, all vachanas will be there. Because you can say, priyaha trayaha yasya saha yayohutau yesham te. So, whenever it is upasarjana, it will not remain bahuvachananta, it will have all three vachanas. So, that is about trishabda in different, when it is a part of samasa. Antaram dvi shabdaha asti, ikarantaha, strilingaha, dvi shabdaha, nityam jivachanantaha. Asya kim bhavati, it is here, dvehe, asve sati, aap. So dvi au ityasti, dvi belongs to tyadadis. Tyadari ganaha iti sarvadishu antarganaha, sarva vishwa ityatra, yadu tadu yadu etadu, idam adas eka dvi. So this eight, these eight words form a subclass which are called tyadadis. Tyadadinam aha ityanena akaraha antadeshatvena vihitaha. So dvi au ityasyate, ikarasya sthane akaraha antadeshaha, dva au, dva au iti bhavati. Idanim akarantatvat, as soon as it becomes akaranta, it gets tap pratyaya for strilinga. Ajadyata shtap, ityanena tap pratyaya, dva a au iti bhavati. Akasavarna dirghaha, ityanena savarna dirghe, dva au. So this much, this prakriya is common for all vibhaktis. Because tyadadina maha again is a sutra which depends on vibhakti. It generally says vibhaktau parataha tyadadina makaraha antadeshaha syat. So when dvishabda is in any vibhakti, it has akara as antadesha. Ajadyatashtap ityanena tap savarna dirgha. So it becomes akara anta, like dva. Even though it was originally ikaranta, this converted to an akaranta. Dva au itisthite, ramashabda se yatha prakriya tathaiva. Aunga apaha ityanena aukarasya shi adeshaha, dva i, adgunaha ityanena gune, dve. Dve, dve. Prathamavibhakto, dvitiyavibhakto cha dvivachane, dve iti rupam. Tritiyadishu, dvabhyam, dvabhyam, dvabhyam. Osi pare, shashti saptamiyohu, dvi os, dva os iti bhavati. Angi chapaha, ityanena etve, dve os, ayadeshe krute, dvayohu, dvayohu. So, for dvishabda, the prakriya is only till converting it to an akara. Once the akara is there, we do forms like ramasha. Okay? So, iti ikarantaha, this ends ikaranta. Ikaranta strilingeshu, mati shabdaha. That is the standard template. All ikaranta strilingas are like mati shabda. Only difference is for tri and dvi. Dvayoreva shabda yohu visheshaha. Tri shabdasya tisru iti adeshaha visheshaha. Dvi shabdasya tyadadina maha iti atve krute, tapi krute, atvam sampadyate iti visheshaha. So all other ikaranta strilingas are like mati shabda. Okay.
Any questions? Yes. Yeah, yeah, it would be there. So if it is samasa, what happens is when you have priyadvi, say priyau dvau asya saha, in samasa there is no sarvanama samya, right? So kim samyoga sarjani bhutastu sarvadayah. So if it is a samasa, the sarvanama samya is not there. So tyadadi namaha would not apply. So if it does not apply, it would be like a normal ikaramsa. If you do it samasa, if you say priya, priyau dvau yasya saha, priyadvi will be like a pullinga, it will be like hari shabda. If you do priye or priyau dvau yasya asa, or if you do priye dve yasya asa, again priyadvi will be like mati shabda. Here he has not raised the question because it is the sarvanama samya itself is lost, and we dealt with it in pullingas. There he showed what happens. Because if it is a samasa, if it is an upasarjana, the sarvanama samya is lost. So, in nowhere does jadadi namaha apply. Any other question? It does not matter in usual cases, but for three it matters because there is a karya which depends on the linga. If there is some karya which has been defined based on the linga of a word, it would apply, which is very rare. Okay, when he Dikshita will show it. Otherwise, the linga of the components would not affect the linga of, I mean, the linga of the samasta pada is what we take for doing the prakriya. The karya, wherever there is a karya which depends on, like priyatri, I mean there are very very few cases I can actually remember them. So one of those is three. Okay. So there are not many karyas in grammar which depend on the linga. Only a few. So in such rare cases you will have to know it. That, I mean, it comes by. So in 99% of the cases it would not matter what is the linga of the components. It is the linga of the samasta pada which matters.
Okay, fine. मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते.